सर्वेभ्यो नमस्काराः। येनाक्षरसमां न्यायमधिगम्याहे तदा व्याकरणं प्रोक्तं तस्मै पाणिनीयो नमः। अर्थकारिं वररुचिं भाष्यपादमुपकण्डलं पाणिनीं चित्तकारं च प्रणतोऽस्मिन्नित्रयं नित्रयं नमस्कृत्य तदत्तीष्टरिभाति च वैयाकरणसिद्धान्तकौमुदीयं वयच्छति। आकारं स्थूलाः अधीयन्ते तत्र जराशब्दः आकारान्तस्त्रीलिङ्गे आदौ रमाशब्दः अधीतः। साधारणशब्दः रमाशब्दः यत्र आपन्तत्वप्रयुक्तानि कार्याणि भवन्ति औङः शीभावः सम्बुद्धौ टा ओसि एत्वं याडागमः नुडागमः नेह आमादेशः इत्येतानि आप्तप्रयुक्तानि कार्याणि भवन्ति। अनन्तरं सर्वाशब्दः यत्र सर्वनामत्वं विशेषेण वर्तते। सर्वनामत्वप्रयुक्तं कार्यं भवति नित्सप्रत्ययेषु स्याट् आगमः प्रकृतेः ह्रस्वः इत्येकः आमः सुडागमः इत्यपरः टु कार्यस् इस् डिपेण्ड् आन् सर्वनाम। आफ्टर् सर्वनाम इट् इस् अनदर् वर्ड् इट्स् हस् संथिङ्ग् स्पेशल् इट्स् इस् जराशब्दः। जराशब्दस्य विषये किं भवति अगादिषु विभक्तिषु भवतः जराया जलसंयुतस्य अर्थेन विकल्पेन जलस् इत्यादेशः भवति। अयमादेशः कदा कर्तव्यः इति प्रश्नः। यतोहि यथा उक्तं तथा आप्तप्रयुक्तानि कार्याणि सन्ति औङः शीभावः एत्वं याट् लुट् आम् इति पञ्च आप्तनियुक्तानि कार्याणि सन्ति। जलसादेशो वर्तते किं करणीयं तस्य प्राधान्यमिति चेत् सिद्धान्ते परत्वात् जलसादेशः क्रियते वित्तनिषेधे प्राप्ते वित्तनिषेधे परं कार्यम् इत्यनेन परत्वात् जलसादेशः क्रियते। जलसादेशे कृते आगन्तत्वं नास्ति जलस् इति आगन्तत्वं नास्ति इत्यतः शीभावादयः न भवन्ति। तेन अजादिषु पृथ्वीषु जलसौ जलसा इत्यादीनि रूपाणि सिद्ध्यन्ति। अस्योपरि काकनचर्चा कृता। So there were several arguments which were made against this and for this. आदौ किम् उक्तं पूर्वविप्रतिषेधाश्रयेण जलसी इति रूपं भवेत् इति आक्षेपः। कथं जरा औ इत्यस्ति औङापः इत्यस्य जराया जलसंयुतस्याम् इत्यस्य च विप्रतिषेधे प्राप्ते विप्रतिषेधे पूर्वं कार्यं भवति इति पूर्वविप्रतिषेधः क्वचित् शास्त्रे आश्रितः। It is not a completely new technique. It has been used in other places in the Shastra. Tasya atrapi ashrayanam kurmaha. Tena alo shibhave krute jaras e, jara e iti bhavati. Idani sannipata paribhashayam praptayam tasya anityatvam ityutva jarasadeshe krute jaras e iti rupam iti prathamaha purvapakshaha. Tasya uttaramasi pramanabhavaha. पूर्वविप्रतिषेधाश्रयणेऽपि प्रमाणाभावः सन्निवादपरिभाषायाः अनित्यत्वाश्रयणेऽपि प्रमाणाभावः भाष्ये अनुक्तत्वात् नाङ्गीक्रियते इति उत्तरम्। ततः अपरः पूर्वपक्षः आसीत् स्थानिवद्भावम् आश्रित्य जलसि इति रूपं कुर्मः। कथं जरा औ इत्यस्ति परत्वात् जलसादेशः क्रियते जरस् औ। इदानीं यद्यपि जरस् इत्यस्य आवन्तत्वं नास्ति तथापि स्थानिवदादेशो निर्मितौ इत्यनेन स्थानिवद्भावात् आवन्तत्वम् आनीय इदानीम् औङापः इत्यनेन शीभावे कृते जरसि इति रूपं तद् नेक्स्ट् आर्ट् तस्य कथम् उत्तरमासीत् आ आप् इति प्रश्लेषक्रियते। यत्र आकाररूपम् आवन्तं भवति तस्मात् परस्य औङः शी स्यात् इति सूत्रार्थः। यद्यपि आप्त्वम् अर्थात् आवन्तत्वं स्थानीयभावेन आनेतुं शक्यते तथापि आकारान्तत्वम् आकाररूपत्वम् आनेतुं न शक्यते अल्विभुत्वात्। अनन्विधावेव स्थानीयभावः आकाररूपत्वम् इति अल्विभिः तेन स्थानीयभावम् आश्रयितुं न शक्यते। अतः जरसि इति न भवति परत्वा जरसादेशः ततः जरसौ इत्येव रूपम् इति सिद्धान्तः। एवं प्रश्लेषः अत्र आश्रितः आ आप् इति एतादृश एव प्रश्लेषः हल्ज्ञादिसूत्रेपि अनुदीक्रियते. कथं हल्ज्ञाभ्यो दीर्घातिदृश्यकृतं हल् इत्युच्यते. ज्ञाप् इत्युक्ते ञी इ आप् इति उभयत्र प्रश्लेषः अङ्गीक्रियते. ञी ञ आप् सवर्णदीर्घेन ञी आप् इति भवति. यण्सन्धौ ञाप् इति भवति. किं प्रयोजनं तेन इति चेत् सूत्रे हलिज्ञाभ्यः दीर्घात् इति उच्यते. दीर्घग्रहणम् इदानीम् नापेक्ष्यते. ञी इ आ आप् इति प्रश्लेषे अङ्गीकृते दीर्घग्रहणं नापेक्ष्यते. तद्विनापि ईकाररूपः अर्थात् दीर्घः इत्येव अर्थः किल. ई ई ईकाररूपः इत्युक्ते सः दीर्घ एव भवेत्. आ आकाररूपः इत्युक्ते दीर्घ एव भवेत्. तस्मात् दीर्घग्रहणस्य यत् प्रयोजनमासीत् अधिखत्वः निष्कौशाम्भिः इत्यादिषु सुलोपनिवारणं दीर्घग्रहणस्य प्रयोजनम्. इदानीं दीर्घग्रहणं विनापि प्रश्लेषेण एव कार्यं सिद्ध्यति इति तस्य प्रयोजनम्. लास्ट् पायिण्ट् इन् द होल् थिङ्ग् वास् अतिखट्वाय इत्यत्र याडागमप्रसक्तिः. अतिखट्वाय इत्यत्र याट् भवतु इति आक्षेपः. कथम् अतिखट्व खट्वाम् अतिक्रान्तः अतिखट्वः अस्ति. तस्य चतुर्थी एकवचने अतिखट्व ने इत्यस्ति. नेर्यः इत्यनेन यादेशे कृते सुपि च इत्यनेन प्रकृतेः दीर्घे अतिखट्वा य इत्यस्ति. इदानीं य इति नित् ये प्रत्ययत्वात् नित् अस्ति. खट्वा इत्यत्र आकाररूपत्वं स्वयमस्ति. स्थानिवद्भावेन आनेतव्यं नास्ति. सो वेर् एवर् वि नीड् टु गेट् द आकार बै स्थानिवद्भाव देर् ओन्ली वि केन् से अनल्विधौ इति निषेधः. बट् हियर् द आकार इस् हर्ड् बै इट् सेल्फ्. वि डोण्ट् नीड् स्थानिवद्भाव. यूसिङ्ग् स्थानिवद्भाव वि नीड् द आबन्तत्व इट् केन् बि डन्. आबन्तत्व इस् नाट् अल्विधि. सो द आप्त्व केन् बि गाट् बै स्थानिवद्भाव एण्ड् इट् इस् स्वयम् आकारात्व. सो combining these, it is A-A-P, the condition is satisfied. So can we do Yat-Agama here? The question. Yat-Agama is not decided. This is a Pullinga and the Rupa is Atikhatvaya. Yat-Agama is not decided. But still, can we do it? Akshepa. So that is much better. No, it is not, the Sutra-Artha is not just A-A-P, it is also Anga. There is one more parameter in the Sutra-Artha, which is Anga. And the relation is Avanta Anga. The one which is Avanta should also be the Anga. Then only we have Yadagama. Atta kim bhavati? Khatva iti Avantam. Pratyaya grahana parikhashaya. Pratyaya grahane yasmat parihitaha tadadehe tadantatya grahanam. Iti parikhashaya. Khatva shabdat apta pratyaya sarithanat. Khatva iti siva Avantatu asti. So Avanta here is only Khatva. But the Anga for Nye Pratyaya is Atikhatva. Yasmat Pratyaya is Tadari Pratyaya. So whatever the Anga, which is Atikhatva, is not Avanta. And the that which is Avanta, which is Khatva, is not Anga. Therefore, Avantat Anga Atikyasya Iti Uktatvat Yadagamo Nambhavati Iti Nishtaya. Any questions? Somebody have any doubts? Did you go through? Okay. There are some people who didn't attend this class, so this might have been a bit fast. You can just listen to yesterday's recording. We will. I hope you'll be able to understand the hand of it. So we will move on. After Jara Shabda. नासिकाशब्दः अधीतः. आकारान्तः स्त्रीलिङ्गः नासिकाशब्दः. नासिका हेज़् वन् फार्म् लैक् रमा. इट् हेज़् वन् फार्म् लैक् द साधारणशब्दः. दर् इस् नो डिफ़रेन्स्. बट् देर् आर् अडिशनल् फार्म्स् आफ्टर् शस्. शस् प्रभृतिषु स्टार्टिङ्ग् फ्रम् शस् इट् हेज़् पतन्नोमास् इति सूत्रेण विकल्पेन नस् इति आदेशो भवति. नासिका इत्यस्य स्थाने नस् आदेशः. नासिका अस् कृते नस् अस् ऋत्वविसर्गयोः नसः. नसा नसे नसः इत्यादीनि रूपाणि. सो अजन्तप्रत्यये अजादिप्रत्यये पदे प्रक्रियायां विशेषः नास्ति. First of all, kriya dadadi, you just join it. Nasu a naka. Nasu as nasas. Rukta visarga. Kintu haladi prateshu pareshu kim bhavati. Nasu hyam. It is kata. Prasajushor ruhu ityanena rukta. Naru hyam. Hashita ityanena rukta. Na u hyam. Gune kata. No hyam. Nobhyam nobhihi, nobhyam nobhyaha, ityadi nirupani. Ante sukh prateya pare, saptami bahuvachane, nasu su, asti. Prasajushoruhu kharvasanayo visarjaniyaha. Naha su, vashari ityanena, visarjasya sthane visarge, naha su, iti rupam. Pakshe, visarjaniyasya saha ityanena, sakara deshe, nasu, iti rupam. Nasadesha seva bhave, nasipasu. So there are three forms in sup, and in all other vibhakti samshas you have two forms. So the first five, that is sup, nasika, nasike, nasikaha, nasikam, nasike. So those five forms, it is only one form. Hello. Rupatrayam bhavati. Naha su. Vasharitanena visargasya visargya naha su. Visarjaniyasya saha ityanena sakara deshe nasu. Abhayo varstha natha deshatteva bhave nasika su. So in sup there are three forms. In the vibhaktis from shas till os we have two forms. The first five we have just one form. Nasika, nasike, nasikaha, nasikam, nasike. That is about Nasika. Idani Nisha Shabdaha Sikha. Akaram Astriyaha Nisha Shabdaha Ratrihi Ittartha. That means night. Nisha Shabda Sikha Bhavati. Adho Punaha Suti Kopi Visheshaha Nasika. Nisha Nishe Nishaha Nisha Mishe. Yani Karyani Rama Shabda Sikha Kheva. Shaspratyaya Parayakim Bhavati. Nisha Yaha Nish Yadeshaha Kriyate. Katham paddan no mas hrn nish paddat nas mas mas hrt nish nisha ityasya sthane nish iti shakarantah adeshah nish as ityasya ruttva visargayoh krutayoh nishah nisham nishe nishah iti ekam rupam adesha bhave arthat nishadeshah vaikalpikah the adeshas by paddan no mas are always optional. So when the adesha is not there, the usual one, hello, prathamayo purvasavarnaha, ityanena purvasavarna vidhye, rukta visargayoh krutayoh nishaha. So nishaha ityapi rupam, nishaha ityapi rupam. Two forms beginning from shas. So similarly, when you have ta and you do a, nisha ityeva rupam. So nisha is the pratipadita, but in tritiya, ekavachana also you have one nisha. Okay, this is the nishaya ityathe nisha ityapi prayojyate adesha bhave nishaya anitapaha ityanena etve nishe a ayadeshe nishaya nisha bhyam tritiya dvivachanam adesha kriyate nish bhyam. Yanim kim bhavet iti prashnah. Nishi bhyam. So we have a new sutra. Nothing complicated about the sutra. It's just a list of dhatus. Two words. Rashtra, Prasda, Sridha, Mridha, Yadra, Raja, Phraja. Iti Sapta Dhatava. So for these seven dhatus. Cha ityukte Chakarantaha. Cha ityukte Shakarantaha. For these seven dhatus, Chakarantas and Shakarantas. There is a Shashti Vibhakti. Cha Sham. Phraha. No, Murdhanya Shakaraha. Adesho Bhavati. Ityarthaha. It's very simple. For these seven and chakarantas and chakarantas, shakara, urdhanya shakara will be the adesha. Kada, this is prashna. Jhalo jhali, this is the answer, jhali iti anavartate. Sukhosta yoga adyor ante ta ante ta ante ta iti anavartate. Jhali ante, ante nama padante, padasya ta ta. So jhali padante cha. So when followed by jhal or when at the end of a pada, for all these particles, the end letter is replaced by sh. Alontasya etanena antadeshaha. So the ending letter will be replaced by sh. Prashtadinam saptana cha shantayoshta. Chakarantayoho shakarantayoshta. Shakaraha antadeshasya chali padante cha. So now we have nish bhyam. Nish iti shakarantaha. So, shakarasya sthane, sha, murdhanya shakaraha, prashtya bhradda iti sutra. No? So, you have nishu, bhyam, and so you have this, shasya, jashtvena, daha, iti uttam. So, chalam jashvante, this has padasamnya, right? Svadisha sarvanama sthane, iti nena padasamnya vidyate. So, padante shatvam kritam, shatve krute, chalam jashvante, iti nena jashtvam karaniyam. So what will be the jashtva for shakara? The question. Chalam, chalvarna namasthane, jash varna ha adeshaha bhavet. Jash pratyahara involves jabagadada pancha varna ha. Deshu taha adeshaha bhavet. The question. Jakara ha. Katham jakara ha. Vai jakara. Which letter should be the adesha and why? The reasoning is more important. Okay, so jash is the third, but there are five vargas. You have ja, ba, ga, da, da. Which of those would you choose? And why? Sthane antaratamaha. Saha antaratamaha. How do we test antartamya? So the first test for antartamya is always sthana. So there are different kinds of sadrishya. Chaturtha, sadrishyam chaturtha. Sthana, sthana, guna, artha, pramana. So the first one which we always take is sthana. So, yeah, if we take sthana, kim bhavati. What is the sthana of shakara? This shakara. Kim sthanam shakarasya. Ritorashanam Murtha. I've been telling it. I've been telling this as Murdhanya Shakara because it is from Murtha. So it is Murtha. Jabagadada etc. Murdhanya Varnakaha. Ritorashanam. So the Tavarga. Ritorashanam Murtha. So the Tavarga is in the same thing. So Tavarga will also have Murtha. So third letter of Tavarga is Da. So wherever we do jastva for shakara, murdhanya shakara, it has to be dakara. So that's why the chitatva is shasya jastvena daha. Dakaraha adeshaha bhavati antaratamya. We have nishudhyam chitatva, chalam jashvante itvanena chitatva, nidhyam. So nisha, nidhyam, nidhihi. Nishe, nidhyam, nidhyaha. So when it is followed by a haladi vipakti, that is in khyam, his, his and su. So there you get prashtar chatya. Prashtar prashtar will not apply to the vipakti adari because it has to have chali padantecha. It has to be either chali or padanta. Then only prashtar prashtar will apply. So in adari vipakti we do not have any tar, any special thing. Wherever the vipakti is haladi, we apply prashtar prashtar. So, we have Nidhyam. On the other hand, if there is no Adesha, it is as usual Nishabhyam. There is no problem. Nidhyam, Nishabhyam. Nidhihi, Nishabhihi. Ityadi ki rupani. Then to the last Saptami Bhuvatana. Nisha, Su. Tatrapi Padatamya Vidyate. Adau Paddanomas Ityalena Nish Adesha Kriyate. अनंतरम पदसंज्ञायाः सत्त्वात् प्रश्चब्धस्य इत्यनेन निश्शकारस्य स्थाने तालव्यशकारस्य स्थाने मूर्धन्यसकारः आदेशः निषु सु जलां दृशन्ते इत्यनेन जष्ट्वे नीड् सु इदानीं किं भवेत् धुडागमो भवति. रिमेम्बर् सन्धि प्रकरण दह सि धुट् दह नाम डकारात् सि सकारे परे सकारस्य धुट् इति आगमः भवति. टित्वात् आद्यन्तौ टकितौ इत्यनेन आद्यवयवः सकारात् प्राक् धुट् इत्यत्र धकारागमः भवति. निड् ध सु विकल्पेन धुट् इति आगमः क्रियते. निड् ध सु आगमे कृते आदौ धकारस्य सकारे परे खरिच इत्यनेन चर्तु. सो धकार धकार झलां खरि परे चरः स्युः. जष्ट्व इस् द थर्ड् लेटर् बीङ्ग् आदेश. चर्त्व इस् द फस्ट् लेटर् बीङ्ग् आदेश. खरि परे एण्ड् फालोड् बै थर्ड् लेटर् द झल् इस् कन्वर्टेड् टु चर् इस् द फस्ट् लेटर् आफ़् द वर्ग. धकारस्य स्थाने तकारः. निड् तु सु. Now this takara is khar. Kha pha cha tha tha cha tha 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 pha sha sha sa. First two letters of each varga and sha sha sa belong to khar. Since this is khar, using this, this dakara will get chatva. Khari cha ityanena asya dakara se chatve nit su. Nit su iti ekam rupam. Dhudaga ma bhave. So this thut is optional. So when we do, there is no judagama, it is nit nid su ityasti. Kharicha ityanena chatve nit su. Judagame krute nit su. Takaraha asti. Tadabhave nit su. Adeshasyeva abhave nishasu. Iti tu bhavati. Nishadeshasya abhave. So, supi dasi dhut iti pakshe dhut. Pakshe nama vikalpena. Optionally dhut. Chatvam. So chatvam for this dha. So you have ta and chatvam for da you have ta. Now the question is, once you have done the chatvam, there is a vartika. Chayo dvitiya shari poshkara sadeyati vartyam. Chayaha for the chay letter. Cha ta ta pa pa. And followed by shar. Shar shasra. There is dvitiya adesha. Akhata varga dvitiya adesha bhavati. Chayo dvitiya shari poshkara sadehe. इत्यनेन तकारस्य स्थाने थकारः आदेशौ भवतु इति आक्षेपः. यु हेड् दिस् इन् सुगण्ठ् षष्ठः. सुगण्ठ् षष्ठः इति स्थिते तकारस्य स्थाने ठकारादेशे सुगण्ठ् षष्ठः. प्राङ्क् षष्ठः इत्यादिषु अस्य वार्तिकस्य उपयोगः कृतः. सत्रापि भवति वा इति प्रश्नः. चयोद्वितीयाः इत्यनेन तकारस्य स्थाने थकारः भवतु इति चेत् न भवति. कुतो न भवति? असिद्धत्वात्. सो खरिच दचत्वा टु गेट् खरिच एतद् 8455 इस् असिद्धा टु वार्तिक. चयोद्वितीयाः इति वार्तिकम् इट् कम्स् अण्डर् सूत्र 8439 ओर् समथिङ्ग्. सो चत्वस्य असिद्धत्वा वार्तिका इस् कन्सर्न् द चत्व इस् असिद्ध. असिद्धत्वात् इट् सीस् धकार अण्ड् अकार अण्ड् इट् इस् नाट् चै दर्को द वार्तिका विल् नाट् अप्लै. सो चत्वं तस्य असिद्धत्वात् तयोद्वितीयाः इति तथयोः तथौ न पदान्तार्थोः इति स्तुत्वं न. Also, there is, when you have this mid to or nit to or nitil to, this takara can get shtunashtu. So, sorry, the takara can get shtunashtu. The takara or the sakara. So, nit to or nitil to. The to or the can get shtunashtu. Shtuna yoga. Shakara kavadda abhyam yoga. सकारटवर्गो स्तः इत्यनेन स्तुत्वं भवतु इति चेत् न भवति. कुतो न भवति? पदान्तात् चोरणाम् इत्युक्ते सूत्रं पदान्तात् सवर्गात् सकारटवर्गयोः परयोः स्तुत्वं स्तुत्वं न भवति. निषेधास्तु स्तुत्वा इत्युक्ते टवर्ग एण्ड् आफ् अ पद देन् इट् विल् नाट् लीड् टु स्तुत्वा फार् सकारार्थवर्ग विच् फालोस् इति निषेधः. So because of that, there is no stutva. The forms are nitatsu and itsu. So the forms are all Nisha, Nidhikhyam, Nidhikhyam, Nisha, Nidhikhyam, etc. Now he just raises an objection. Shadhoho kaha si. This is sutra vastu. Shadhoho, it is very simple. Shadhoho iti shashti kaha iti prathama si iti saptare. Kortaha shakara dhakara yoho sthane kakaraha adesha kahave sakare pare. Very simple, there is no anuvritti and there is nothing. So the sutra is very clear. Shadhoho kaha si. Shasya dhasya cha. Nama shakarasya dhakarasya cha. Kaha sya sakare paya. Sakara desho harate. So the argument is nishu su. Right? Supratyaya paraya. Nishareshe kate. Tasya vashtabhasya etame na. Shatre kate nish su ityasti. We applied jhalam nishvante. But the question is, why not apply shadhok tatsi? There is shakara which is followed by sakara. Let it be converted to sakara. Is the objection. Why should we not apply shadhok tatsi? Iti chet, iti to na bhavati. We do not get kutara. Right? Jashtvam prati asiddhatva. Jhalam jashvante di sutram bhavati. Ashtamadhyayasya dhitiya padasya. Una sattvarimthatvam sutram. षडोक्तस्य इति तु एकचत्वारिंशत्तमं सूत्रम्. सो जष्ट्वं प्रति कत्वस्य असिद्धत्वात् किञ्च झष्ट्व जष्ट्व इस् सारी कत्व इस् असिद्ध फोर् जष्ट्व टु रिमेम्बर् इन् सपादसप्तध्वनि इट् इस् आल्वेस् द लेटर् सूत्र विच् अप्लै इन् त्रिपादि इट् इस् आल्वेस् द अर्लियर् सूत्र विच् हस् टु अप्लै वेन् एवर् दर् इस् अ क्लाश्. सो जष्ट्व विल् अप्लै बिकास् कत्व इस् असिद्ध Krishnampati Asitrasvara. So he has just raised an argument and refuted it. So the sutra is not actually used here. It is used in other cases. There are other cases where you use it, where there is actually shakara and sakara. But here it is not used. Next. Kechittu. वृष्टादिसूत्रे नारेर्धातोः इति सूत्रात् धातोः इति अनुवर्तयन्ति. दिस् वृष्टभ्रजसूत्रसूत्रार्थ विसेट् वृष्टादीनां सप्तानां सशान्तानां षकारान्तात् अण्ड् षकारान्तात्.
there is no adjective for that, because it can be any chakaranta or shakaranta. But according to some people, dhatuhu ityanuvrittihi asti. Ladaya dhatuvah iti purvatan sutram asti. Tena dhatuhu iti anuvartate. Sutre dhatuhu ityanuvritto kim bhavati. Chakaranta शतारांतस्य धातोः शतारांतस्य धातोः षत्वम् इति सूत्रार्थ संपद्यते. सो इफ वी हैव द अनुवृत्ति ऑफ धातु, द सूत्रार्थ वुड बी फॉर शतारांत धातुस एंड फॉर शतारांत धातुस देन ओनली वी हैव मूर्धन्यादेश. नो निश इज नॉट अ धातु, सो सिंस इट इज नॉट अ धातु वी कैन नॉट अप्लाई वृत्सर्जस्य इन दैट केस. सो व्हाट विल हैपन, निश भ्याम इत्यस्ति. There is no Western pressure, so we directly apply Dhalam Jashwante. Dhalam Jashwante ittinena jashtve hrute kim pavet. Idani ichveshanam talu. Ayam talavyaha shakaraha. Tasya sthane talavya sthana kaha. Sthata chavarga hruti yaksharaha adesho bhavati jashtva vittitte. Tena nij dhyam. So if we are doing jashtva for the buddhanya shakara, it will be nidh dhyam. That is dakara vira adesho. If we are doing it for the Talavya Shakara, Jakara would be the Anisha. So we have Nijya Dhyam. Chok Kuhu Iti Kutvam Tu Nambhavati. Here again there is a question. After we do Jakara, there is a question which says Chok Kuhu. Chu Nama Chavardhasthi Sthane Kavardhadesho Bhavati. So Sutra Dhari Padan Ketcha. Chavardhasthi Sthane Kavardhaha Adesho Bhavati. So the J should be replaced by Ga, by Kutva. But kutvam na bhavati. Kutvam na bhavati. Jashtasya asiddhatva. So kuhu is earlier to jashtva. It is 8 to 30. So jashtasya asiddhatva. According to chok kuhu, it is only nishu bhyam. Since shu is not chavarga, there is no kutva. It jashtve kute iti tasya asiddhatva. Chok kuhu iti kutvam na bhavati. Nijbhyam. Nisha nijbhyam nijbhihi. Nishe nijbhyam nijbhyaha. Ityadi ni rupa. So, now again, what happened with Astami Bahojana is the question. Nishu Su. You should remember always in Halanta, so whenever the Pratipalika becomes Halanta or is Halanta, the Karya would only be in Haladi Vibhakti and in Su. In Su, there are options of being an additional Karya. We have Nishu Su. Dhalam Jashwam Peti Jashwe, Nij Su. Stoho Shtuna Shtuho Shakara Tavarga Yoho Shakara Chavarga Abhyam Yoge Shakara Chavarga. So the Shakara, because of this Shakara, we get Shtutva. Shtutva means it gives Shakara as the Adesha. Nij Shu. Shakare Prate Kharicha Ittenena Dakara Sucharpe Nij Shu. Idani Ekadekam Rupam Shashchoti Shaha Chaha Ati. So Chalah Parasya Shasya. So when it is followed by when there is a Shakara Ati and the next letter is an At, you get Chakara as the Adesha optionally. Shashchoti Chattva Sanghiti. Tena Nichhu Iti Ekam Rupam. Shashchoti is optional. So Chattva Bhave Nichya Shu Iteva Rupam. Adeshasya Abhave Nishasu. So there are three forms. One is Nichhu, when we do Shtutva, Chattva and then. So that's why he said here, Jastvam, Shtutvam, Chattvam. So the Salam Jashwante is Jastvam, Toshtvam, Shtubhuti, Shtutvam, Kharicha is Chattvam. You get Nichhu, which is one form. Shashchoti ityanena vikalpena shakara sisthane chakara desho bhavati. Tada Nichhu iti rupam. Ubhayoho bhavya arthase, Nish adesha eva nakriyate se, Nishasu. इत्येकं रूपम् अस्ति. निशा निजभ्यां निजभिः इत्यादि अन्ते निच्छु निच्छु निशासु. सो दिस् निशा शब्द केन् हाव् टु टैप्स् आफ् फार्म्स् डिपेण्डिङ्ग् आन् विच् पार्टि युर् आन् वेदर् यु कन्सिडर् धातोः फार् वृष्टभ्रज आर् नाट्. सो धातोः इत्यनुवृत्तिः नास्ति इति पक्षे रूपाणि भवन्ति. शतः आरभ्य शस्त्रप्रदिशु पद्धन्नोमासित्यनेन निश् आदेशः हलादिप्रत्ययेषु परेषु सेन भ्याम हिस एक्सेट्रा वृष्टभज इत्यनेन षकारः तस्य जस्त्वेन डकारः सो हम निभ्याम निडिभि एक्सेट्रा इफ इट इज अजादि देयर इज नो कार्य इट इज जस्ट निश आ निशा निश ए निशे एक्सेट्रा इन सप्तमी बहुवचने किं भवति वैकल्पिकः धुडागमः भवति निड सु निड घ सु तत्वे कृते निट् सु तदभावे निट्सु आदेशाभावे निशासु थ्री फॉर्म्स नौ इफ वी कंसीडर वृष्टादि सूत्रे धातोः जनवृत्तिः अस्ति इति पक्षे किं भवति तिङ्गे वर्धनमासीत्येन निश् आदेशः कलादिषु प्रत्ययेषु जस्तो instead of doing shakara and then doing jasva, we directly do jasva. So it becomes jakara. Nijbhyam, nijbhihi, ityadi. Punaha suti, vaikalpiko, chatto. Not chutto, sorry. Chatto. This is chatto santi. Nichhu, tibhavati. Chatto se abhave, nichhu. Tada bhasasya pe abhave, nishasu. The total of there are two cases which you have for Nisha, you can go for either one. So the forms will differ. Okay. Mm-hmm. Examples of this.
Yeah, that are quite there. I don't remember any example of him,
but there are the Nish Adesha is used. Padanamad is a pretty often used sutra. So, for particular examples of Nisha Shabda, you have to look at. I don't know any of them. I think there are. Or the Saptami, yeah, that also depends. I don't know anything of them. एकं वार्तिकमस्ति मांसकृतनां साधूनां मांस स्नोवाच्याः साधु वार्तिक है मांसकृतनां साधूनां So these three words, Mamsa, Prithu, Snavaha, Vachyaha. There is an Adesha, this is an appendix to Paddhanomas. Paddhanomas, it is Mutrata, Adesha, Hatriyanthe. So in addition, the Vartikatara says three Adeshas, Mamsa, Prithana, Sanu. For these three words, there is Mamsa, Prithu and Snu as the Adesha. Shasadavu, Shasprathatishu, Vikalpena. Irani, we take only Pratana because we are in Akaranta Sthrilingas. We take Pratana. Pratana, Akaranta Sthrilingas. Sena, it means an army. Pratana, Shastratya, Pratana. Anena Vastikena, Prithu, Prithu, Adesha. Prithu, As, Prithu, Visalvaya, Prithaha. Prithanaha, Prithaha. Iti Rupadvaya. Pakshaya Prithanaha. So actually there is nothing else. So you have Pratana, Prataha, Prata, Pridhyam, Pridhihi. So if it is a Haladi Vibhakti, there is Jashtva. So you have Pridhyam, Pridhihi, Prate, Pridhyam, Pridhyaha, etc. When you come to Sup, again you have Prith, Su, it is Kete, Halam Jashvante iti Jashtvam, Kharicha iti Chartvam. You have to do both and you end up with Prithsu. There are two forms. Forms I'm sure you can know by yourself. There is nothing special about it, you just have to replace. The Adesha itself is special. So that iti akarantaha, that ends akaranta strilingas. So strilingesho akarantaha strilingaha na santi. There are no akaranta strilingas. So we have akaranta strilingas, where you have Rama as a sadharana shabda, then you have Sarva, Jara, Nasika, Nisha, Pratana. So there are cases where it might differ. Okay. So that N Akaranta Strilinga, any other Akaranta Strilinga would be like Rama Shabda. So next we go on to Ikaranta Strilingas. Ikaranta is the Hasvanta Ahapi Santi. Gopa would be Akaranta. It is like Rama, that's all. If it is Strilinga, it is like Rama. If it is if it is not Abanta, the forms will be like Pullinga. So there are forms like we had in Pullinga, there is like Vishwapa or Gopa. If it happens to be in Strilinga, we can't do any Abhantata Prayukta Karyas because the Akara is not the Abhanta. So the forms will be like what they were in Pullinga. Gopa and Vishwapa, all of them, the forms will be exactly similar. There is no difference between the forms in Pullinga and Strilinga if it is not Abhanta. So yeah, there are chances of their Akarantas which are not like Rama but which are like the Akaranta Pullingas like Vishwapa. Good word, very sometimes. Let us skip my mind. So now, Ikaranta Strilinga. Ikaranta Strilingeshu Mati Shabda. So, Mati Shabda Prayena Harivat. So, in many cases, mostly Mati Shabda will be like Hari Shabda. So what is like Hari Shabda? Prathama Vibhakto Matihi. Abhinasi Rutvam Vitardaha. Mati Su it is to say. Sasarushoruhu Kharvasana Yodhisasaninaha Matihi. Mati Harihi Hari Harayaha Iti Mati Matihi Mati Matayaha. How do we get Mati? Mati iti katham. Pura sarna dirha, vai prathama yoh pura sarna ha. Akaha prathama dvitiya yoh achi pare. Pura sarna dirha ha eka adesha. Mati au. Pura sarna dirha. Mati. Next, mati hi mati. Matayaha. Katham matayaha yate.
What would it be?
It would be Matis.
Right. And then there is no option for Ikoyadachi.
Mati as is this thing. So you cannot do. This is a Iskanyana Kim Bhavati. What do we get by this is the. Mati as the sita is kanena kim bhavati. Gunaha. The sita re hrasvasya gunaha syat. Kanena gune mate as anantaram. Echo ayavaya vaha. Kanena ayadeshe matayas. Iti bhavati. Rutva visargayoha krutayoha matayaha. Matihi mati matayaha. He mate. So, I didn't mean to reveal that.
ह्रस्वस्य गुणः इत्यनेन गुणः ह्रस्वस्य सम्बुद्धौ परतः गुणो भवति हेमते सु एङ्ह्रस्वात् सम्बुद्धेः इत्यनेन सम्बुद्धिलोपे हेमते हेमते हेमति हेमतयः मतिम् हौ मति अम् इत्यस्ति पूर्वः इत्यनेन पूर्वरूपं पूर्वरूपे कृते मतिं मति अम् इत्युक्ते मतिं मतिं मती मतीः हियर् इट् वेरीस् फ्रम् हरिशब्द हौ डु वि गेट् मतीः ऋत्वविसर्गो मति अस् मतीस् मतीर्मतिः स्त्रीत्वात् मत्वाभावः इन् हरि शब्द वाट् हेपन् हरीन् इति भवति हरिं हरि हरीन् कथं हरीन् तस्मात् छसो न पुंसि तत्र सूत्रे एव पुंसि इति उच्यते पुल्लिङ्गे शसः सकारस्य स्थाने नकारादेशो भवति अत्र तु स्त्रीत्वात् नत्वं न भवति मतीः इत्येव रूपम् स्त्रीत्वात् न स्वाभावः नात्वं न मत्या सुनेक्त्युः मति आ तृतीयैकवचने मति टा आ इत्यस्ति हरि आ इति स्थिते किं भवति हरिशब्दस्य किं भवति मतिशब्द वि हेव् कोयनसि मति आ मत्या हरिशब्दस्य किं भवति वाट् इस् हरिशब्द गेट् रेण्डर् इस् सत्यम् आङ्गो नास्त्रिया इत्यनेन आङ्गः नाम सा प्रत्ययस्य स्थाने न इति आदेशो भवति हरिशब्दस्य किन्तु तत्रैव अस्ति अस्त्रियाम् आङ्गः न अस्त्रियां स्त्रियां न भवति इत्यर्थः स्त्रियाम् इति निषेधात् तत्र अत्र मतिशब्दस्य विषये नात्वं न भवति इको एणसि इत्यनेन एणादेशे मत्या इति रूपं सो वाट् इट् सेट् वास् हि सेड् मतिशब्दः प्रायेण हरिवत् इन् देर् इट् इस् लैक् हरि एण्ड् हि शोयिङ्ग् डिफरेन्सस् वेर् इट् डिफर्स् फ्रम् हरि सो देर् आर् टू केसस् सो फार् द्वितीया बहुवचने नत्वं न भवति तस्मात् ससो नः पुंसि इति नत्वं न भवति एकवचने आङ्गो नास्त्रिया इति नात्वं नाभावः न भवति मत्या मतिभ्यां मतिभिः सो नेक्स्ट् स्टाप् हियर् कम्प्लीट् मतिशब्द समं नारायण ब्रह्मेश्वर दुःखं व्याकरणं दत्तं तस्मै पाणिनीय नमः मन्त्रेण इत्यर्थपत्ति परिभाग्य च वैयाकरणसिद्धान्तपौवदीशं विरप्स्यते